పతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సీదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్ వాజినీవతీ భీనామ విత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమణ్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషః శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూరఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశంతాభిచాకశీ యామిషుం గిరిశంతహస్తే బిభర్ష్యస్తవే శివాం గిరిత్రతాం కురుమాహిగుం స్వీః పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యథా నః సర్వమిజ్జగదయక్ష్మగుం సుమనా అసత్ అభ్యవోచదధివక్తా ప్రథమో దైవ్యోభిషక్ అహీగశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః అసౌ యస్తాం అరుణ ఉత బభ్రస్వ మంగళః యే చేమాగుం రుద్ర అభితో దిక్షుశ్రుతా సహస్రశో వైశాగుం హేడ ఈమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మేఢుషే అతో యే అస్య సత్వానోహం తేభ్యో కరన్ నమః ప్రముంచ ధన్వనస్త్వముభయోరాత్మ్యోర్జ్యాం యాశ్చ తే హస్త ఇషవ పరాత భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు దే నిశీర్య శల్యానాముఖ శివో నః సుమనాభవ విజ్యం ధనుః కపర్దినో విషయ్యో బాణవాగుం ఉత అనేషన్నశేషవ ఆమురస్య నిషంగతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వనస్త్వమయక్ష్మయా పరిభుజ నమస్తే అస్వాయుధాయ నాతతాయ దృష్టవే ఉమాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అతో యషు నిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వ ईश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशां च मतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिन् जराय त्विषेमते पतीनां पतये नमो नमो बभ्रुषाय विव्याधिनेन्द्रानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नम कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमत्सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुं सद्भ्यो मुष्णताम् पतये नमो नमो त्रिमद्भ्यो नक्तं चरभ्यः प्रकृन्तानाम् पतये नमो नम उष्णेषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो भ्रातेभ्यो भ्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महत्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपतिभ्यश्च वो नमो नमः सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः सख्यभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुण्यस्तेभ्यो निषादेभ्यश्च वो नमो नम हि शुक्रद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम स्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेढुष्टमाय चेशुवते च नमो अस्वाय च वामनाय च नमो नृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे च जिराय च नमः शीघ्रियाय च शेभ्याय च नमः ओर्याय च वत्स्वन्याय च नमः श्रोतस्याय च देव्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगद्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वद्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वभिन्दते च नमो वर्मिणे च वरोधिने च नमो विल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो निष्णवे च प्रमृषाय च नमो नूताय च प्रणिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः सत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः चोद्याय च सरस्याय च नमो नास्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय चातप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः सेत्याय च कोल्याय च नमः वार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आत्ताय च लात्याय च नमः शष्प्याय च वेद्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रपत्याय च नमः ಗೆಗುಂ ಶಿಲಾಯ ಚ ಕ್ಷಯನಾಯ ಚ ನಮಃ ಕವರ್ತಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಠ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಃ ಸ್ಥಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ಗಹ್ವರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮಃ ಪೂರ್ಣ್ಯಾಯ ಚ ಸೂರ್ಣ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾಣಾಯ ಚ ವಿಕ್ತತೆ ಚ ನಮಃ ಆಖಿದತೆ ಚ ಪ್ರಖಿದತೆ ಚ ನಮೋ ವಕ್ಷಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೇಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆಮಿ ವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸಸ್ಪತೆ ದರಿದ್ರಂ ನೀಲಲೋಹಿತ ಏಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾ ರೋಮೋ ಯೇಷಾಂ ಕಿಂಚ ನಾಮಮತ್ ಯಾತೆ ರುದ್ರ ಶಿವಾತ್ತನೋ ಶಿವ ವಿಶ್ವಾಹ ಭೇಷಜಿ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜಿ ತಯಾನೋ ಮೃಣ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕವರ್ದಿನೇ ಕ್ಷಯದ್ವೇನಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಚಮಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯತ್ಕೃತಿ ಕ್ಷಯದ್ವೇನಾಯ ನಮಸಾ ವಿಧೇಮತೆ ಯಚ್ಚಂಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಚ ಮತವ ರುದ್ರ ಪ್ರಣೀತೌ ಮಾನೋ ಮಹಾಂತಮುತಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವಧೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನ ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರಭಾವಿತೋ ವದೇರ್ ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೆ ಆರಾತ್ತೇ ಗೋಪ್ನ ಉತ ಪೂರುಷನ್ನೇ ಶಯಕ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೆ ಅಸ್ತು ರಕ್ಷಾಚನೋ ಅನಿಚ ದೇವ ಮೃಗ್ಯಥಾ ಚ ನಶರ್ಮ ಯಚ್ಚ ನಿವರ್ಹಾ ಸುಹೃ ಶ್ರುತಂ ಗರ್ತ ಸದಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮು ಮಹತ್ವಮುಗ್ರಂ ಮೃಡಾ ಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ವರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ವಿಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ಥಿರ ಮಗವದ್ಯಸ್ತನುಶ್ವಮೇಡ ಶೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೇಡುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ತಿಂ ವಸಾನ ಆಚರ ಪಿನಾಕಂ ಹಿಮ್ರದಾಗಹಿ ವಿಕಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ಸಹಸ್ರಾಣಿ ಸಹಸ್ರ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೇಶಾನೋ ಭಗವಃ ಪರಾಚೀನ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರಾಹಿ ಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ವಧನ್ವಾನಿ ತನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯನ್ನವೇಂತರಿಕ್ಷೆ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾ ಏವೃಕ್ಷೇಶು ಸಸ್ಪಿಂಜರ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಕ್ಕವರ್ಧಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಮಾತ್ರೇಷು ವಿಮತೋ ಜನಾನ ಯೇ ಪತಾಂ ಪತಿರಕ್ಷಯ ಐಲಮೃದಾಯಂ ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಶುಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ತಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇ ದಶ ದಕ್ಷಿಣ ದಶ ಪ್ರತಿಚೇ ದಶೋ ದೇಚೇ ದಶೋದ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂತು ತೇಯಂ ದ್ವಿಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿತಂ ವೋಜಂ ಭೇದಧಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೆ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಅರ್ವಾಲುಕಮಿವ ವಂದನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರ ಅಗ್ನವ್ಯೋ ಅಪ್ಸು ಯ ಔಷಧೀಷು ಯೋ ರುದ್ರ ವಿಶ್ವ ಭುವನಾದಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾ ನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ನೇನಾನ್ನೇನಾಭ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಯಸ್ವಿಶುಸ್ಸು ಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಭಿರ್ದೇವಮಸುರಂ ದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರ ಅಯಂ ಮೇ ವಿಶ್ವಭೇ ಸಯೋ ಯಗುಂ ಶಿವಾಮಿಮರ್ಶನ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂಚ ಮೇ ನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯತಶ್ಚ ಮೇ ಭದಶ್ಚ ಮೇ ದ್ರವಿಣಂಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಶ್ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂಚ ಮೇ ಯಾತ್ರಂಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಚೋಶ್ಚ ಮೇ ಸೇರಂಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂಚ ಮೇ ಮೃತಂಚ ಮೇ ಯಕ್ಷ್ಮಂಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂಚ ಮೇ ನಮಿತ್ರಂಚ ಮೇ ಮಯಂಚ ಮೇ ಸುಗಂಚ ಮೇ ಶಯನಂಚ ಮೇ ಸೋಷಾಶ ಮೇ ಸುನಿರಂಶ ಮೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ವಿಷ್ಣೋರುಕಂ ವೀರ್ಯಾಣಿ ಪ್ರವೋಚಂ ಯಃ ಪಾರ್ಥಿವಾನಿ ವಿವಮೇ ರಜಾಗುಂಸಿ ಯೋ ಅಸ್ಕಭಾಯದುತ್ತರಗುಂ ಸಹಸ್ತಂ ವಿಚಕ್ರಮಾಣ ತ್ರೇಧೋರು ಗಾಯಃ ವಿಷ್ಣೋರರಾಟಮಸಿ ವಿಷ್ಣೋ ಪೃಷ್ಠಮಸಿ ವಿಷ್ಣೋ ಸ್ನಪ್ತೇ ಸ್ಥೋ ವಿಷ್ಣೋ ಶೌರಸಿ ವಿಷ್ಣೋ ಧ್ರುವಮಸಿ ವೈಷ್ಣವಮಸಿ ವಿಷ್ಣವೇ ತ್ವಾ ತದಸ್ಯ ಪ್ರಿಯಮಧಿಪಾಧೋ ಅಸ್ಯಾಂ ನರೋ ಯತ್ರ ದೇವಯವೋ ಮದಂತೇ अनुक्रमस्य स हि बन्धुरित्था विष्णो पदे परमे मध्वौ सः तद्विष्णस्तव ते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः यस्योरसु त्रिषु विक्रमणेषु अधिक्षयन्ति भुवनानि विश्वाः परो मात्रया तनुवा वृधाना न ते महित्वमन्वश्नुवन्ति उभे ते विद्मरजसि पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे पृथिवीमेष एता क्षेत्राय विष्णुर्मनुषे दशस्यन् नृवासो अस्य कीरयोजना सह उरुक्षितिगुम् सुजनिवाचकार त्रिर्देवः पृथिवीमेष एताम् विचक्रमे सतर्च सम्महित्वा प्रविष्णुरस्तु तव सस्तवीयान् त्वेषगृह्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधादिदधे पदम् समूढमस्य पागुम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णोः परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरा ततम् तद्विप्रासो विपन्यवो जाग्रवागुम् सस्समिन्धते विष्णोर्यत्परमम् पदम् पर्याप्या अनन्तरायाय सर्वस्तोमोऽसि रात्र उत्तममहर्भवति सर्वस्याप्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वम् जयति ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदाधारः पृथिवेन्द्यामुते माम् कस्मै देवाय हविषा विधेम यात्मदा बलदा यस्य विश्व उपासने प्रदिशम् यस्य देवाः यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो महित्वैक इन्द्राजा जगतो बभूव यैषे अश्वदिवदश्चतुष्पदः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया सहो यस्येमा प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ये नद्यौ रुग्रा पृथिवी च दृढा येन स्वस्थभितम् येन नाकः यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम यम् क्रन्दसि अवसातस्तभारे अभ्यैक्षे ताम् मनसा रेजमाने यत्र निसौर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहतेर्विश्वमायन् गर्भम् दधाना जनयन्ते रग्निम् ततो देवानां समावर्तता सुरेख कस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यवश्यद्यक्षं दधान जनयन्ते यज्ञम् यो देवेष्वधि देव एक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसे जनिताय पृथिव्यायो वादिवम् सत्यधर्मा जजान यश्चावश्चन्द्र बृहतेर्जजान कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्यामवतयोरयीणाम् ॐ शान्ति शान्ति शान्तिः ॐ यश्चन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽध्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरि विश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया मेधा देवी जुषमाणा न आगाद्विश्वाचि भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वदेम विधदे सुवीराः त्वया जुष्टर्षिर्भवति देवि त्वया ब्रह्मा गतश्रीरुतत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधाम् महीन्द्रो दधातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना उभावा दत्ताम् पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः दैवी मेधा सरस्वती सामा मेधा सुरभिर्जुषता गुस्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगदी जगम्या ऊर्जस्वती पयसा पिन्वमाना सामा मेधा सुप्रतीका जुषन्ता मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयि इन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् मयि मेधाम् मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मेधाम् मयि मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि अग्निरग्निर्मयि प्रजाम् प्रजाम् मयि अग्निः प्रजामिति प्राजाम् मयि अग्निरग्निर्मयि मयि अग्निस्तेजस्तेजोऽग्निर्मयि मयि अग्निस्तेजः अग्निस्तेजस्तेजोऽग्निरग्निस्तेजो दधातु दधातु तेजोऽग्निरग्निस्तेजो दधातु तेजो दधातु दधातु तेजस् तेजो दधातु मयि मयि दधातु तेजस् तेजो दधातु मयि दधातु मयि मयि दधातु दधातु मयि मेधां मेधां मयि दधातु दधातु मयि मेधां मयि मेधां मेधां मयि मयि मेधां मयि मयि मेधां मयि मयि मेधां मयि मेधां मयि मयि मेधां मेधां मयि प्रजां प्रजां मयि मेधां मेधां मयि प्रजां मयि प्रजां प्रजां मयि मयि प्रजां मयि मयि प्रजां मयि मयि प्रजां मयि प्रजां मयि मयि प्रजां प्रजां मयि इन्द्र इन्द्रो मयि प्रजां प्रजां मयि इन्द्रः प्रजामिति प्राजां मयि इन्द्र इन्द्रो मयि मयि इन्द्र इन्द्रियमिन्द्रियमिन्द्रो मयि मयि इन्द्र इन्द्रियम् इन्द्र इन्द्रियमिन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्रियम् दधातु मयि मयि दधात्विन्द्रियमिन्द्रियम् दधातु मयि दधातु मयि मयि दधातु दधातु मयि मेधाम् मेधाम् मयि दधातु दधातु मयि मेधाम् मयि मेधां मेधां मयि मयि मेधां मयि मयि मेधां मयि मयि मेधां मयि मेधां मयि मयि मेधां मेधां मयि प्रजां प्रजां मयि मेधां मेधां मयि प्रजां मयि प्रजां प्रजां मयि मयि प्रजां मयि मयि प्रजां मयि मयि प्रजां मयि प्रजां मयि मयि प्रजां प्रजां मयि सूर्यः सूर्यो मयि प्रजां प्रजां मयि सूर्यः प्रजामिति प्राजां मयि सूर्यः सूर्यो मयि मयि सूर्यो भ्राजो भ्राजः सूर्यो मयि मयि सूर्यो भ्राजः सूर्यो भ्राजो भ्राजः सूर्यः सूर्यो भ्राजो दधातु दधातु भ्राजो भ्राजः सूर्यो भ्राजो दधातु भ्राजो दधातु दधातु भ्राजो भ्राजो दधातु दधात्विति दधातु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयो रावृणीमहे गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्वद्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् सभूमिं विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनाधिरोहति एतावानस्य महिमा अथोज्जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहा भवात्पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्माद्विराटजायत विराजो अधिपुरुषः स जातो अत्यरिच्छत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्याधिदाज्यम् ग्रीष्म यद्मः शरद्रविः सप्तास्यासन् परिधयः त्रिसप्त समिदः कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् वर्हिषि प्रोक्षण्य पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का वोरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः ओरो तदस्य यद्वैष्यः पद्व्यागुंसोद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्धत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते दाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वश्चा विदध्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवाग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवासन्वशे ह्रीश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् ఇష్టం మనిషాణా అమం మనిషాణా సర్వం మనిషాణా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవీ స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్వద్విపదే శం చతుష్పదే ఓం శాంతి శాంతి శాంతిః స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహీం మహేషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతిః